सादृश्यं कलशाम्बुदेर्वहति यत् कामाक्षि मन्दस्मितं शोभामोट्टरुचाम्ब विद्रुमभवा एतद्भिदां ब्रूमहे एकस्मादुदितं पुरा किल पपौ सर्वपुराणपुमान् एतन्मध्यसमुद्भवं रसयते माधुर्यरूपं रसम् उत्तुङ्गस्तनकुम्भशीलकटके विस्तारि कस्तूरिका पत्रश्रीजुषि चञ्चला स्मितरुचः कामाक्षिते कोमला सन्ध्यादिदितिरञ्जिता इव मुहुः सान्द्रधरज्योतिषा यालोलामल शारदाभ्रशकल व्यापारमातन्वते क्षीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं मातस्ते सह पाठवीथिमयता मन्दस्मिते मञ्जुलै किं चेयं तु विधास्ति दोहनवशात् एकं तु संजायते कामाक्षि स्वयं अर्थितां प्रणमतां अन्यत्तु दोदुह्यते कर्पूरैरमृतैर्जगज्जननिते कामाक्षि चन्द्रातपैः मुक्ताहारगुणैर्मृणालवलयैः मुग्धस्मितश्रीरियम् श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनैः तत्तादृक्ममतापशान्तिविधये किं देवि मन्दायते मध्ये गर्भितमञ्जुवाक्यलहरी माध्वीधरी शीतला मन्दारस्तबकायते जननिते मन्दस्मितां शुच्छटा यस्य वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहः वल्गुर्वीक्षण विभ्रमव्यतिकरः वासन्तमासायते।